एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। स्वास्थ्य जनसंख्या मन्त्रालयेन चिकित्सोपकरणानां स्थापनाय स्थानानि संचालनाय जनशक्तिंश निश्चितैव उपकरणानां क्रयणार्थं वित्तस्य विनियोजनाय स्वान्तर्गताः निकायाः निर्दिष्टाः वर्तन्ते। एवमेव स्वास्थ्य संस्थाभि प्रशिक्षिताभ्य अनुभवयुक्ताभ्यश्च जनशक्तिभ्य एव उपकरण संचालनस्य दायित्वं देयमिति मन्त्रालयेन निर्दिष्टमस्ति। स्वकार्यालयेषु विद्यमानानि उपकरणानि दीर्घकालं यावत् प्रयोगं विनैव संस्थाप्य पुनः नवीनानाम् उपकरणानां क्रयणस्य प्रवृत्तिं निरुत्साहयितुं सम्बद्धाः शाखाः विभागाश्च दायित्ववाहिनो विधातुं च मन्त्रालयेन परिपत्रस्य माध्यमेन निर्दिष्टं वर्तते। स्वास्थ्य मन्त्रालये एतदन्तर्गतेषु निकायेषु च औषधानाम् उपकरणानां च क्रयण व्यवस्थापनयोः प्रभावकारितायै एतद्विक्रमवर्षीयं क्रयण मार्गदर्शनं मन्त्रिस्तरीयेण निर्णयेन स्वीकृतमस्ति इति मन्त्रालयेन ज्ञापितं वर्तते। नेपालस्य विद्यमान निर्वाचन प्रणाल्या समावेशिनः समानुपातिकस्य च प्रतिनिधित्वस्य न्यायोचितं व्यवस्थापनं स्थायित्वस्य दृष्ट्या अपेक्षितं परिणामं च प्रदातुं शक्तं नास्तीत्यतः निर्वाचन प्रणाल्याः सुधारस्य आवश्यकता प्रदर्शिता वर्तते। संसदीय विषय पत्रकार समाजेन ह्य काभ्री जनपदे आयोजितायां नेपाले निर्वाचन प्रणाल्याः सुधारः इति विषयिण्याम् अन्तर्क्रियायां वक्तृभिः विद्यमान निर्वाचन प्रणाल्या कस्यापि दलस्य स्पष्ट बहुमतस्य प्राप्तेः अभावस्य अवस्थायाः सर्जनात् राजनीतिका स्थिरता वर्धमानास्तीत्यतः निर्वाचन प्रणाल्याः संशोधनस्य आवश्यकता प्रदर्शिता वर्तते। केनापि दलेन एकल बहुमतस्य प्राप्तेः अभावस्य अवस्थायाः सर्जनेन सर्वकारस्य अस्थिरता कार्यसम्पादने समस्या विश्वासस्य न्यूनता चेति समस्याभि निर्वाचन प्रणाल्यां सुधारो विधेये इति वक्तृभिः बलं दत्तमस्ति। अन्तर्क्रियायां नेपाली कांग्रेसदलस्य सांसद हृदयराम थानी, माओवादी केन्द्रस्य सांसद पूर्णबहादुर घर्ती, नेकपा एमाले दलस्य सांसद ईश्वरी घर्ती मगर, रासोपा दलस्य सांसद डाक्टर तोषिमा कार्की, जनता समाजवादी दलस्य सांसद रेखा यादव, प्रमुख निर्वाचन आयुक्त दिनेश कुमार थपलिया, पूर्व प्रमुख निर्वाचन आयुक्त नीलकण्ठ उप्रेती च विचारान् व्यक्तवन्तः। वैंकववर्तिन्या नेपाली दूतावासेन आकर्षक वृत्त्युपार्जनस्य लोभेन कम्बोडिया, लाओस, म्यान्मार, थाइल्याण्ड प्रभृतिन् देशान् न गन्तुम् अनुरुद्धम् वर्तते। दूतावासेन तेषु देशेषु आकर्षक वृत्त्युपार्जनस्य व्याजेन नेपाली नागरिकै कष्टानि अनुभूयमानानि वर्तन्ते, बन्धको भूत्वा स्थेयञ्च वर्तते इति सूचनां प्रकाश्य संसूचितम् वर्तते। सर्वकारेण निर्धारितं मापदण्डम् आधृत्यैव श्रम स्वीकृतिं गृहीत्वैव वैदेशिक वृत्त्युपार्जनाय गन्तुं प्रलोभात् अधिकम् अर्थम् अर्जयितुं विधि विपरीतं कार्यं विधाय कम्बोडिया, लाओस, म्यान्मार, थाइल्याण्ड प्रभृतिषु देशेषु वृत्त्युपार्जनाय न गन्तुं दूतावासेन अनुरुद्धमस्ति। मधेशान्दोलने त्यक्त प्राणानां जनानां योगदानं स्मृत्वा मधेश प्रदेशेन सह काष्ठमण्डपेऽपि सप्तम बलिदान दिवसः विविधान् कार्यक्रमान् आयोज्य ह्य समायोजितोऽस्ति। तराई मधेश लोकतान्त्रिक दल नेपालेन दल केन्द्रीय कार्यालय बबरमहल स्थाने ह्य आयोजिते कार्यक्रमे दलस्य नेतारः विभिन्न जाति भाषा समुदायानां संरक्षणं कृत्वा नेपालं सबलं विधातुं एतेभ्य अधिकाराः प्रदातव्यः इति न्यश्चिन्वन्। ह्य एव सिरहा जनपदस्य लहान स्थाने आयोजिते कार्यक्रमे जनता समाजवादी दल नेपालस्य राष्ट्रियाध्यक्षः उपेन्द्र यादवः वाममार्गिणां बाहुल्ययुतया समाजवादी संयुत्या सह कथं विधमपि सहकार्यं न भविष्यति इति उदैरयत्। पश्चिमवातस्य प्रभावेण देशस्य समस्थलेषु भागेषु उपत्यकायाः कतिषुचित् स्थानेषु च बाष्पकुहराधिक्यात् सावधानताम् अवलम्बितुम् अनुरुद्धमस्ति। प्रातःकाले देशस्य समस्थलेषु उपत्यकायाः कतिषुचित् स्थानेषु च कुहरस्य सम्भावनायाः कारणेन दैनिकं जनजीवनं कृषि स्वास्थ्यं यातायात सेवा वायुसेवाश्च प्रभाविताः सम्भविष्यन्तीत्यतः आवश्यक सावधानतायै जलवायु पूर्वानुमान महाशाखया सर्वे अनुरुद्धा वर्तन्ते। जलविप्लवस्य कारणात् संकटापन्नौ महाकाली नद्यां निर्माणाधीनं चतुष्पंक्तियुक्तं वज्रसेतुं मानव वसतिं च ह्यो गृहमन्त्री रमेश लेखकः भौतिक पूर्वाधार यातायात मन्त्री च देवेन्द्र दहालश्च निरीक्षितवन्तौ। सेतोः अवलोकनानन्तरं गृहमन्त्री लेखकः निर्दिष्ट जलमार्ग सीमनि भग्ने सति सेतुः वसतिश्च उभौ संकटे पतितुं शक्नुतः इत्यतः सत्वरं समाधानस्य अन्वेषणस्य आवश्यकता अस्ति इति अवदत्। तदवसरे भौतिक पूर्वाधार यातायात मन्त्री दहालः सेतु वस्तुस्थितेर्विश्लेषणं विधाय समस्यायाः समाधानं विधास्यते इति अभाषत। गोरखातः चीन योजक मार्गान्तर्गतस्य बेनीघाट आरुघाट लार्के मार्गखण्डस्य कृष्णपट्टिकायाः कृते षष्टिलक्ष्याणि रूप्यकाणि सुनिश्चितानि सन्ति। आर्खेतस्थानात् हवाडाँडास्थानपार्यन्तिकस्य 10 किलोमीटर मित मार्गस्य कृष्णपट्टिकायै स्तरोन्नतये च अर्थमन्त्रालयेन बहुवर्षीयः दायित्वानुबन्धः कृतोऽस्तीति गोरखा मार्गायोजना कार्यालयस्य प्रमुखः अमिन्द्र खड्का असूचयत्। एतस्यानुसारेण अर्थमन्त्रालयात् वित्तस्य स्रोतसः सुनिश्चयनेन सहैव अस्मिन् वर्षे आर्खेतस्थानात् हावाडाँडा पार्यन्तिकस्य मार्गखण्डस्य कृष्णपट्टिका करिष्यते। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ निगदति मानव सेवा तो महान कोऽपि अन्यो धर्मो नास्ति। लमजुङ जनपदस्य बेसी शहर नगरपालिकायाः सप्तम ओडा क्षेत्रस्य मानव सेवाश्रमे ह्य आयोजिते कार्यक्रमे मन्त्री गुरुङ विविधै कारणै असहायावस्थां प्राप्तानां जनानां सेवायाः कृते विधीयमानः सहयोगः महत्वपूर्णोऽस्ति इति प्रावोचत्। सर्वकारस्य प्रवक्ता च मन्त्री गुरुङ असहायावस्थां प्राप्तानां जनानां सेवायै उत्थानाय च मानव सेवाश्रमेण विहितस्य योगदानस्य प्रशंसाम् अकरोत्। शुष्केण भूस्खलनेन अवरुद्ध उत्तर दक्षिण कोशी मार्गान्तर्गत संखुआसभा जनपदस्य भोजखोला ग्रामपालिकाया तृतीय ओडा क्षेत्रवर्तिनी सेम्बुक स्थाने खादबारी किमाथाङका मार्गखण्ड संचालितो वर्तते। मार्गस्योपरि पाषाणखण्डयुतेन शुष्क भूस्खलनेन शुक्रवासरात् अवरुद्ध मार्गखण्डोऽसौ ह्यस्तनात् दिवसात् संचालितोऽस्तीति उत्तर दक्षिण मार्ग कार्यालयस्य सूचनाधिकारी नरेश जिरेल अज्ञापयत्। भोजपुरस्य रामप्रसाद राही ग्रामपालिकाया तृतीय ओडा क्षेत्रस्य भूल्के स्थाने एकम गृहम एका जलनलिका प्रणाली चेति अभियानम संचाल्य शतचतुष्टयादपि अधिकेभ्य गृहपरिवारेभ्य पेयजलम वितीर्णम वर्तते। ओडा क्षेत्रस्य अभ्यन्तरे स्थितेभ्य सर्वेभ्य 68 शतचतुष्टयाय गृहपरिवारेभ्य पेयजलम वितीर्णम अस्तीति ओडाध्यक्ष रामु थापा मगर असूचयत्।